इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः तिवारी। अथ वार्ताः। पूर्व प्रधानमन्त्रिणः डॉक्टर मनमोहन सिंहस्य अन्त्येष्टि संस्कारः अद्य भविष्यति। तस्य अन्तिम यात्रा नवदिल्लीस्थितात् कांग्रेस दल मुख्यालयात् प्रातःकाले सार्ध नववादने निगम बोध घाटस्थितं श्मशानघट्टं यावत् आरभ्यते। डॉक्टर मनमोहन सिंहस्य राजकीय सम्मानेन सह अन्तिम संस्कारः प्रातः पादोन द्वादश वादने करिष्यते। कांग्रेस कार्यसमित्या ह्यः मनमोहन सिंहस्य निधने शोक प्रस्तावः अंगीकृतः। अनेन दलेन डॉक्टर सिंहस्य निधने शोकं प्रकटयता उक्तं यत् तस्य जीवनं कार्याणि च भारतस्य भाग्यं गहनतया निरमादिति। पारितंगते प्रस्तावे अधिकं समृद्धयुतस्य ऐक्ययुतस्य च भारतस्य निर्माणाय पूर्व प्रधानमन्त्रिणः मूल्यानां स्थापनाय प्रतिबद्धता प्रकटितास्ति यस्य कल्पना तेन कृतासीत्। जनवरी मासस्य प्रथमदिनांकं यावत् राजकीय शोकः घोषितः। शोकावधौ समग्रदेशः समग्रदेशे राष्ट्रध्वजः अर्धावनतः स्थास्यति। अत्रावधौ केन्द्रीय मन्त्रिमण्डलेन पूर्व प्रधानमन्त्रिणः निधने शोकं प्रकटयता प्रोक्तं यत् एकः प्रख्यातः राजनेता प्रसिद्धः अर्थशास्त्री दिवंगतः। अपि च भारतस्य एकनवत्यधिकनवदशशततमवर्षात् षण्णवत्यधिकनवदशशततमवर्षपर्यन्तं वित्तमन्त्रीरूपेण डॉ मनमोहनसिंहेन विहितानि कार्याणि सर्वविदितान्येव सन्तीति। राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः जगदीप धनखडः प्रधानमन्त्री नरेन्द्रमोदी च अन्ये च नेतारः पूर्व प्रधानमन्त्रिणः डॉक्टर मनमोहन सिंहस्य निधने शोकं प्रकटितवन्तः। निज सन्देशे राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् डॉक्टर सिंहः तेषु असाधारण राजनेतृषु अन्यतमः आसीत् येन शिक्षाजगति प्रशासनजगति च समानरूपेण सरलतया च कार्यं कृतम्। उपराष्ट्रपतिः जगदीप धनखडः अवोचत् यत् पूर्व प्रधानमन्त्री डॉ मनमोहन सिंहः प्रतिष्ठितः अर्थशास्त्री आसीत्। तेन भारतस्य आर्थिकं परिदृश्यं परिवर्तितम्। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च राजधान्यां नवदिल्ल्यां डॉ मनमोहन सिंहस्य आवासे तस्मै श्रद्धाञ्जलिं समर्पितवन्तः। निज सन्देशे प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् पूर्व प्रधानमन्त्रिणः डॉ मनमोहन सिंहस्य निधने राष्ट्रं शोक संतप्तम् अस्ति। प्रधानमन्त्रिणा उक्तं यत् तदीयं जीवनं भावि सन्ततये अनुकरणीयम् अस्ति। केन्द्रीयमन्त्री अमितशाहः जेपी नड्डाः राजनाथसिंहः ज्योतिरादित्य सिंधियाः कांग्रेसदलस्य पूर्वाध्यक्षा सोनिया गांधी च अन्ये च नेतारः पूर्व प्रधानमन्त्रिणः डॉ मनमोहन सिंहस्य गृहम् उपेत्य तस्मै श्रद्धाञ्जलिं समर्पितवन्तः। प्रधानमन्त्री श्री नरेन्द्र मोदी अस्य मासस्य एकोनत्रिंशत् दिनांके श्वः आकाशवाण्याः मन की बात इत्येतस्मिन् कार्यक्रमे जनैः सह स्वविचारान् विनिमयीकरिष्यति। इदं मासिक रेडियो कार्यक्रमस्य सप्तदशाधिकैकशततमं संस्करणं भविष्यति। कार्यक्रमस्य प्रसारणम् आकाशवाण्यां दूरदर्शने एआईआर न्यूज वेबफलके न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे च भविष्यति। अयं कार्यक्रमः प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालयोः यूट्यूब वाहिनीषु अपि द्रष्टुं शक्यते। हिन्दी भाषायां प्रसारणानन्तरं क्षेत्रीय भाषासु च अस्य कार्यक्रमस्य प्रसारणं भविष्यति। महिला क्रिकेट प्रतिस्पर्धायां भारतेन ह्यः वडोदरायाः कोटाम्बी क्रीडांगणे आईसीसी चैम्पियनशिप इत्येतस्याः श्रृंखलायाः तृतीये अन्तिमे च एकदिवसीये द्वन्द्वे वेस्टइंडीज दलं पञ्चस्तोभैः पराजितम् इति वार्ताः।